ओम नमो भगवते वासुदेवाय। अथ विंशोऽध्यायः। श्रीशुक उवाच। तयोस्तदद्भुतं कर्म दावाग्नेर्मोक्षमात्मनः। गोपास्त्रीभ्यः समाचक्षुः प्रलम्बवधमेव च। गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः। मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ। ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्भवा। विद्योतमानपरिधिर्विस्फूर्जितनभस्तला। सान्द्रनीलाम्बुदैर्व्योम सविद्युत्स्तनयित्नुभिः। अस्पष्टज्योतिराच्छन्नम् ब्रह्मेव सगुणम् बभौ। अष्टौ मासान्निपीतम् यत् भूम्याश्चोदमयम् वसु। स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते। तरित्वन्तो महामेघाश्चण्डश्वसनवेपिताः। प्रीणनम् जीवनम् यस्य मुमुचुः करुणा इव। तपः कृशादेव मीढा आसीत् वर्षीयसी मही। यथैव काम्यतपसस्तनुः सम्प्राप्य तत्फलम्। निशामुखे सुखद्योतास्तमसा भान्ति न ग्रहाः। यथा पापेन पाखण्डा न हि वेदाः कलौ युगे। श्रुत्वा पर्जन्यनिनदम् मण्डूकाव्यसृजन् गिरः। तूष्णीम् शयानाः प्राग् यद्वत् ब्राह्मणा नियमात्यये। आसन्नुत्पथवाहिन्यः क्षुद्रनद्योऽनुशुष्यतीः। पुंसो यथा स्वतन्त्रस्य देहद्रविणसम्पदः। हरिता हरिभिः सस्पैरिन्द्रगोपैश्च लोहिताः। उच्छिलीन्द्रकृतच्छाया नृणाम् श्रीरिव भूरभूत्। क्षेत्राणि सस्य सम्पद्भिः कर्षकाणाम् मुदम् ददुः। धनिनामुपतापम् च दैवाधीनमजानताम्। जलस्थलौकसः सर्वे नववारिनिषेवया। अबिभ्रद्रुचिरम् रूपम् यथा हरिनिषेवया। सरिद्भिः सङ्गतः सिन्धुश्चुक्षुभे श्वसनोर्मिमान्। अपक्वयोगिनश्चित्तम् कामाक्तम् गुणयुग्यथा। गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः। अभिभूयमाना व्यसनैर्यथा धोक्षजचेतसः। मार्गा बभूवुः सन्दिग्धास्त्रिणैश्छन्नाय संस्कृताः। नाभ्यस्यमाना श्रुतयो द्विजहि कालहता इव। लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः। स्थैर्यम् न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव। धनुर्वियति माहेन्द्रम् निर्गुणम् च गुणिन्यभात्। व्यक्ते गुणव्यतिकरे गुणवान् पुरुषो यथा। नरराजोऽडुपच्छन्नः स्वज्योत्स्नाराजितैर्घनैः। अहम् मत्या भासितया स्वभासा पुरुषो यथा। मेघागमोत्सवाहृष्टाः प्रत्यनन्दन् शिखण्डिनः। गृहेषु तप्ता निर्विण्णा यथाच्युतजनागमे। पीत्वापहपादपहत्पद्भिरासन्नानात्ममूर्तयः। प्राक्षामास्तपसा श्रान्ता यथा कामानुसेवया। सरस्वशान्तरोधस्सु न्यूषुरङ्गापि सारसाः। गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः। जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे। पाखण्डिनाम सद्वादैर्वेदमार्गाः कलौ यथा। व्यमुञ्चन् वायुभिर्नुन्ना भूतेभ्योऽथामृतम् घनाः। यथा शिशो विष्पतयः काले काले द्विजेरिताः। एवम् वनम् तद्वर्षिष्ठम् पक्वखर्जूरजम्बुमत्। गोगोपालैर्वृतोरन्तुम् सबलः प्राविशद्धरिः। धेनवो मन्दगामिन्य ऊधो भारेण भूयसा। ययुर्भगवताहूता द्रुतम् प्रीत्या स्नुतस्तनीः। वनौकसः प्रमुदिता वनराजीर्मधुच्युतः। जलधारागिरेर्नादानासन्ना ददृशे गुहाः। क्वचित् वनस्पतिक्रोडे गुहायाम् चाभिवर्षति। निर्विश्य भगवान् रेमे कन्दमूलफलाशनः। दध्योदनम् समानीतम् शिलायाम् सलिलान्तिके। सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः। शाद्वलोपरि संविश्य चर्वतो मीलिते क्षणान्। तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधोभरश्रमाः। प्रावृट्श्रियम् च ताम् वीक्ष्य सर्वभूतमुदावहाम्। भगवान् पूजयाञ्चक्रे आत्मशक्त्युपबृंहिताम्। एवम् निवसतोस्तस्मिन् रामकेशवयोर्व्रजे। शरत्समभवत् व्यभ्रा स्वच्छाम् वपरुषानिला। शरदा नीरजोत्पत्त्या नीराणि प्रकृतिम् ययुः। भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया। व्योम्नोऽब्दम्भूतशाबल्यम् भुवः पङ्कमपाम्मलम्। शरज्जहाराश्रमिणाम् कृष्णे भक्तिर्यथा शुभम्। सर्वस्वम् जलदाहित्वा विरेजुः शुभ्रवर्चसः। यथा त्यक्तैषणा शान्ता मुनयो मुक्तकिल्बिषाः गिरयो मुमुचुस्तोऽयम् क्वचिन्न मुमुचुः शिवम् यथा ज्ञानामृतम् काले ज्ञानिनो ददते न वा नैवाविदम् क्षीयमाणम् जलम् गाधजले चराः यथा युरन्वहम् क्षय्यम् नरा मूढा कुटुम्बिनः गाधवारिचरास्तापमविन्दम् छरदर्कजम् यथा दरिद्रः कृपणः कुटुम्ब्य विजितेन्द्रियः शनैः शनैर्जहुः पङ्कम् स्थलान्यामम् च वीरुधः यथाहम् ममताम् धीरा शरीरादिष्वनात्मसु निश्चलाम्बुरभूत्तूष्णीम् समुद्रः शरदागमे आत्मन्युपरते सम्यम् मुनिर्व्युपरतागमः केदारेभ्यस्तपो गृह्णन् कर्षका दृढसेतुभिः यथा प्राणैः स्रवज्ज्ञानम् तन्निरोधेन योगिनः शरदर्कांशुजान्स्तापान् भूतानामुडुपोहरत् देहाभिमानजम् बोधो मुकुन्दो व्रजयोषिताम् खमशोभतनिर्मेघम् शरद्विमलतारकम् सत्त्वयुक्तम् यथा चित्तम् शब्दब्रह्मार्थदर्शनम् अखण्डमण्डलो व्योम्निरराजोडुगणैः शशी यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि आश्लिष्य समशीतोष्णम् प्रसूनवनमारुतम् जनास्तापम् जहुर्गोप्यो न कृष्णहृतचेतसः गावो मृगाखगानार्यः पुष्पिण्यः शरदाभवन् अन्वीयमानाः स्वविषैः फलैरीशक्रिया इव उदरिष्यन् वारिजानि सूर्योत्थाने कुमुद्विना राज्ञा तु निर्भया लोका यथा दस्यून्विना नृप पुरग्रामेष्वाग्रयणैरैन्द्रियैश्च महोत्सवैः बभौ भूः पक्वसस्याढ्या कलाभ्याम् नितराम् हरेः वणिङ्मुनिनृपस्नाता निर्गम्यार्थान् प्रपेदिरे वर्षरुद्धा यथा सिद्धा स्वपिण्डान् काल आगते ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे प्रावृट्शरद्वर्णनम् नाम विंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।